श्री महर्षि पतंजलि प्रणीतं योगदर्शनं प्रथमपादः अथ योगानुशासनं योगश्चित्तवृत्ति निरोधः तदा द्रष्टु स्वरूपे वस्तानं वृत्तिसारूप्यमितरत्र वृत्तय पञ्चतय क्लिष्टाक्लिष्टाः प्रमाणविपर्ययविकल्पनिद्रा स्मृतयः प्रत्यक्षानुमानागमाप्रमाणानि विपर्ययो मिथ्यज्ञानमतद्रूपप्रतिष्ठम् शब्दज्ञानानुपातीवस्तु शून्यो विकल्पः अभावप्रत्ययालम्बनावृत्तिर्निद्रा अनुभूतविषयासम्प्रमोषस्मृतिः अभ्यासवैरग्याभ्यं तन्निरोद्धः तत्र स्थितौ यात्नुभ्यासः स तु दीर्घकालनैरन्तर्यसत्कारासेवितो द्रुतभूमिः दृष्टनुश्रविकविषया वृत्तृणस्य वशीकारसंज्ञा वैरग्यं तत्परं पुरुषुख्याते गुणवैतृष्ण्यम् वितर्कविचारानन्दस्मितारूपानुगमन् सम्प्रज्ञातः विरामप्रत्ययभ्यासपूर्वसंस्कारशेषून्यः भावप्रत्ययो विदेहप्रकृतिलयानं श्रद्धावीर्यस्मृति समाधिप्रज्ञपूर्वक इतरेशं तीव्रसंवेगानम् असन्नः मृद्दुमद्यादिमत्रत्वात् ततोऽपि विशेषः ईश्वरप्रणिदानाद्वा क्लेशकर्म विपाक अशया अपरमृष्ट पुरुषविशेष ईश्वरः तत्र निरतिशयं सर्वज्ञबीजं स एष पूर्वेषामपि गुरुकलेनान्नवच्छेदत् तस्य वाचकप्रणवः तज्जपस्तदर्थभावनं तत्तप्रत्यक्षेतनादिगमोऽप्यन्तरय्यभवश्च व्याधिस्थानसंशयप्रमादालस्य अविरति भ्रान्तिदर्शनालब्धभूमिकत्वाननवस्थितत्वानि चित्तविक्षेपस्तिन्तरय्याः दुःखदुर्मनस्य अङ्गमेजयत्वाश्वासप्रश्वास विक्षेपसः भुवः तत्प्रतिषेधर्थमेकतत्त्व अभ्यासः मैत्रीकरुणामुदितोपेक्षानं सुखदुःखपुण्यापुण्यविषयानं भावनातश्चित्तप्रसादनं प्रच्छर्दनाविदरणाभ्यम्बप्रणस्य विषयवतीव प्रवृत्तिरुत्पन्ना मनस स्थितिनिबन्धिनी वीशोकाव ज्योतिस्मति वीतरागविषयं वच्चित्तं स्वप्ननिद्रज्ञानलम्बनं वा यथा विमताध्यानाद्वा परमनुपरममहत्वातोऽस्य वशिकारः